इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। इदानीं वार्ताः। दशमः अन्ताराष्ट्रिय योग दिवसः सम्पूर्णे विश्वे ह्यः समाचरितः। प्रमुख कार्यक्रमः जम्मू कश्मीरस्य श्रीनगरस्य शेरे कश्मीर अन्ताराष्ट्रिय सम्मेलन केन्द्रे समायोजितः। प्रधानमन्त्री नरेन्द्र मोदी श्रीनगरतः अस्य कार्यक्रमस्य नेतृत्वं कृतवान्। कार्यक्रमावधौ प्रधानमन्त्री जनसमागममपि सम्बोधितवान्, अपि च सामान्य योग सत्रे अपि भागं भजितवान्, यस्मिन् शारीरिक मानसिक आध्यात्मिक विकासस्य प्रतिपोषणाय च योग महत्वं प्रतिपादितम्। अपरत्र केन्द्रीय गृहमन्त्री अमित शाहः ह्यः अहमदाबाद नगरस्य गोटिला गार्डन इत्याख्ये उद्याने आयोजिते अन्ताराष्ट्रिय योग दिवस समारोहे भागं गृहीतवान्। योगोत्साहिनः जनाः सम्बोधयन् श्रीशाहः अवोचत् यत् प्रधानमन्त्री नरेन्द्र मोदी अन्ताराष्ट्रिय योग दिवसस्य रूपेण सम्पूर्णाय विश्वाय भारतीय संस्कृतेः ज्ञानस्य च सन्देशं प्रदत्तवान्। एवमेव सर्वेषु राज्येषु योग दिवसः सम्यक् रूपेण समाचरितः। बांग्लादेशीया प्रधानमन्त्री शेख हसीना इत्येषा भारतस्य द्विदिवसीय यात्रां प्रति ह्यः समागता। शेख हसीना अन्ताराष्ट्रिय नेतृषु आसीत् या प्रधानमन्त्रिणः नरेन्द्र मोदिनः केन्द्रीय मन्त्रिमण्डलस्य च शपथग्रहण समारोहे उपस्थिता आसीत्। प्रधानमन्त्रिणः नरेन्द्र मोदिनः निमन्त्रणे तस्याः इयं यात्रा अस्ति। प्रथमे दिवसे विदेशमन्त्रिणा एस जयशंकरेण सह तस्याः पारस्परिकोपवेशनं जातम्। अत्रावसरे विदेशमन्त्रालयेन कथितवान् यत् भारत बांग्लादेशौ स्वीय विशिष्ट सम्बन्धान् इतोऽपि सुदृढीकर्तुं प्रतिबद्धौ स्तः। विदेशमन्त्रालयस्य प्रवक्ता रणधीर जयसवालः वार्ताहरान् सम्बोधितवान् यत् उभयोः देशयोः मैत्रीपूर्ण सम्बन्धान् अवलोकयन्तौ उभौ पक्षौ आशामग्नौ स्तः। बांग्लादेशस्य प्रधानमन्त्रिणः शेख हसीनायाः भारत यात्रा मध्ये अद्य केषुचित् सहभागितापत्रेषु हस्ताक्षरमपि भविष्यति। गृहमन्त्री अमित शाहः ह्यः अहमदाबाद नगरस्य स्वीय गांधीनगर लोकसभाक्षेत्रस्य नारनपुरा क्षेत्रे अहमदाबाद नगर निगमद्वारा संचालितानां 30 सामर्थ्ययुतानां स्मार्ट इत्याख्यानां विद्यालयानां दृश्यश्रव्यमाध्यमेन उद्घाटनं विहितवान्। अत्रावसरे असौ प्रवदन् यत् 30,000 करोड़ रूप्यकाणां व्ययेन निर्मितानां एतेषां विद्यालयानां माध्यमेन भूयोऽपि 30,000 बालेभ्यः नवीन शिक्षानीतेः लाभं मेलिष्यति। दिल्ली उच्चन्यायालयेन कथितं मद्यनीति प्रकरणे मुख्यमन्त्रिणः अरविन्द केजरीवालस्य मुक्तियाचिका स्थगिता कृता। न्यायालयेन प्रोक्तं यत् मुख्यमन्त्रिणम् अरविन्द केजरीवाल मुक्तिदातुं विशिष्ट न्यायालयस्य आदेशं तथावत् प्रभाविं न भविष्यति यथावत् सः अस्मिन् प्रकरणे प्रवर्तन निदेशालयस्य समाह्वान याचिकासु वादश्रवणं न करिष्यति। प्रशासनेन काबुलिक चणकं समेत्य आढकी चणक द्विदलयोः भण्डारागारे सीमा निर्धारिता कृता। अयं पदक्षेपः भण्डारण सम्बद्ध भ्रष्टाचारं कुटिलतां च रोद्धुम् उत्थापितः वर्तते। अनेन सहैव अनेन पदक्षेपेण उपभोक्तृभ्यः सुलभतया द्विदलानि उपलब्धानि कारयिष्यन्ते। उपभोक्ति विषयक खाद्य वितरण मन्त्रालयेन अस्मिन् सन्दर्भे एकः आदेशः प्रख्यापितः। इयं सीमा सितम्बर मासस्य 30 दिनांकं यावत् प्रचलिष्यति इति वार्ताः।